इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः स्वीय संसदीय क्षेत्रे वाराणस्यां 700-600 कोटिरूप्यकाणां बहुविध विकास परियोजनानां आधारशिला स्थापनम् उद्घाटनं च कृतवान्। अस्मिन् अवसरे प्रवदन् प्रधानमन्त्री उक्तवान् यत् अद्य वाराणसीं प्रति शिक्षा, कौशलविकासः, क्रीडा, स्वास्थ्यसेवाः, पर्यटनं च इत्यादिषु क्षेत्रेषु सम्बद्धाः विकासपरियोजनाः प्रस्तुताः, येन न केवलं जनानां जीवनस्य गुणवत्तायां सुधारः भविष्यति, अपितु यूनां कृते वृत्त्यावसराणाम् अवसराः अपि सृज्यन्ते। श्रीमोदी प्रकाशितवान् यत् विगत 10 वर्षेषु देशे आधारभूतसंरचनाविकासाय विशालः अभियानः सर्वकारेण आरब्धः, यस्य उद्देश्यं जनानां कृते सेवासुधारः, निवेशैः यूनां कृते वृत्त्यावसराणां सृजनं च अस्ति। कार्यक्रमे उपस्थितः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि प्रधानमन्त्रिणः आभारं प्रकटितवान् यत् सः विकासस्य स्वरूपे दीपावल्याः उपहारं जनान् प्रदत्तवान्। प्रधानमन्त्रिणा सारनाथे बौद्धधर्मसम्बद्धक्षेत्राणां पर्यटनविकासकार्याणाम् अपि उद्घाटनं कृतम्। वाणासुरमन्दिरस्य, गुरुधाममन्दिरस्य च पर्यटनविकासकार्यम्, उद्यानानां सौन्दर्यीकरणं, पुनर्विकासादि नैके उपक्रमाः अपि समारब्धाः। प्रधानमन्त्री नरेन्द्रमोदी नेत्रचिकित्सालयस्य उद्घाटने सबलं प्रतिपादितवान् यत् विगतेषु 10 वर्षेषु देशस्य स्वास्थ्यसेवाक्षेत्रे परिवर्तनानि जातानि। सः न केवलं पूर्वाञ्चले अपितु सम्पूर्णे देशे प्रमुखस्वास्थ्यसेवाकेन्द्रत्वेन वाराणस्याः वर्धमानं प्रतिष्ठां प्रकाशितवान्। श्रीमोदी स्वीय संसदीय क्षेत्रे वाराणसी नगरे राजशंकर नेत्र चिकित्सालये उद्घाटनानन्तरं वदति स्म। असौ घोषितवान् यत् देशे स्वास्थ्य सेवानां मूल संरचनानां सुदृढीकरणाय आगामिषु 5 वर्षेषु 75,000+ चिकित्सालयानां संयोजनं भविष्यति। श्रीमोदी केन्द्रप्रशासनस्य स्वास्थ्य सेवामालक्ष्य विविधाः उपक्रमाः सूचीकृताः, येषु जनानां कृते अल्पमूल्येषु चिकित्सा प्रदीयन्ते। भाजपेति दलेन आगामि महाराष्ट्रस्य विधानसभा निर्वाचनाय 99 प्रत्याशिनां प्रथमा सूची प्रसारिता। उपमुख्यमन्त्री देवेन्द्र फडणवीसः नागपुर दक्षिण पश्चिम विधानसभासनात्, महाराष्ट्र भाजपा प्रमुखः चन्द्रशेखर बावनकुले कामठीतः दलस्य प्रत्याशी भविष्यति। भाजपायाः केन्द्रीय निर्वाचन समित्याः अनुमोदनेन अभ्यर्थीनां नामानि प्रसारितानि सन्ति। 88,200 सदस्यात्मिकायाः राज्य विधानसभायाः निर्वाचनम् आगामिमासस्य 20 दिनांके एकस्मिन्नेव चरणे भविष्यति। मतगणना नवम्बरमासस्य 23 दिनांके भविष्यति। झारखण्ड विधानसभा निर्वाचनस्य कृते 70 आसनानां झारखण्ड मुक्ति मोर्चा तथा कांग्रेस द्वारा INDIA गठबन्धनस्य नियमानुसारं एव विभाजनं क्रियते। तत्रैव राजद माकपा ML दलानां कृते 11 आसनानि प्रदीयन्ते। जम्मूकश्मीर विधानसभायाः नवनिर्वाचित विधायक सदस्याः अद्य श्रीनगरे शपथग्रहणं करिष्यन्ति। अस्थायी विधानसभाध्यक्षः मुबारक गुलः नवनिर्वाचित विधायकान् शपथग्रहणं कारयिष्यति, येषु 51 सदस्याः प्रथमवारं शपथग्रहणं करिष्यन्ति। शपथग्रहणम् अपराह्णे 2 वादने भविष्यति। महिलानां 20-प्रतिविंशति क्रिकेट विश्वचषक प्रतिस्पर्धायाः निर्णायकद्वन्द्वे गतसायं दुबई अन्ताराष्ट्रिय क्रीडांगणे न्यूजीलैण्डदलेन दक्षिणाफ्रीकादलं पराजित्य ऐतिह्यं विरचितम्। इति वार्ता।